नमस्कारः अद्य सत्येषसमासप्रकरणे द्वादशः पाठः समासान्ताः तत्पुरुषे समासान्ताः अनुवर्तन्ते एनाक्षरसमाम्नायमधिगम्यमेश्वरात्तत्सम्याकरणम् कर्तुम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते. स्त्रीलिङ्ग समासान्तास् इन् तत्पुरुष. बहूनां शब्दानां समासान्ताः अधीताः. रात्रिशब्दस्य अच् भवति समासान्तः. एवम् अहन् राजाः सखिभ्यः टच् ज्ञात्वा अहन् शब्दस्य विषये अह्नादेशः णत्वम् इत्यादि विशेषाः अपि अधीताः. अग्रे सरामः. अग्रिमं सूत्रमस्ति अग्राख्यायां पुरसः इति. पदद्वयमस्ति अग्राख्यायां पुरसः इति. उरस् शब्दस्य टच् स्यात् तथा उरस् इति शब्दान्तः यः तत्पुरुषः तस्य टच् इति समासान्तः भवति. कदा? अग्राख्यायाम्. अग्रः नाम मुख्यः इत्यर्थे उरस् शब्दान्तस्य तत्पुरुषस्य टच् समासान्तः भवति. अश्वानाम् उरः इव अश्वोरसम् इति उदाहरणम्. अश्वानाम् उरः इति वस्तुतः षष्ठी समासः. मुख्यः अश्वः इत्यर्थः. अग्राख्या नाम मुख्याधकत्वम् इत्यस्ति. मुख्यः अश्वः इत्यर्थे उरः उरशब्दस्य वक्षस्थलम् इत्यर्थः. मुख्यः भागः देहस्य इत्यतः अत्र अस्मिन् सन्दर्भे उरस् इत्यस्य मुख्यः इत्यर्थः अस्ति. अतः मुख्यवाचिना उरशब्देन षष्ठी समासः. समासस्य अश्वानाम् उरः इति. अश्व आम् उरस्सु इति. तत्र उरशब्दस्य मुख्यः इत्यर्थः. अश्वानां मुख्यः इत्यर्थे अश्वोरस् इति सकारान्तं प्रातिपदिकं भवति. तत्र टच् इति समासान्ते कृते अश्वोरस इति अकारान्तम्. पुरशब्दस्य नपुंसकलिङ्गत्वात् परवलिङ्गं द्वन्द्वतत्पुरुषयोः मया उक्तं. पर शब्दस्य उत्तरपदस्य यल्लिङ्गं तदेव लिङ्गं भवति. पुरशब्दस्य नपुंसकलिङ्गत्वात् अश्वोरसम् इत्यपि नपुंसके विद्यते. क्षम्यताम्. अग्राख्यायां किम्? मुख्यार्थकत्वं नाम कः? कः? देवदत्तस्य उरः इत्यस्ति. देवदत्तस्य वक्षस्थलम् इत्येव अर्थः. तदा तु देवदत्तोरः इत्येव रूपम्. देवदत्तोरः इति सकारान्तम्. उरः उरसि उरांसि. देवदत्तोरः देवदत्तोरसि देवदत्तोरांसि इति सकारान्तत्वमेव भवति. यत्र तु मुख्यत्वं विवक्ष्यते तत्र तच् समासान्तः भवति इत्यर्थः. अग्रिमं सूत्रमस्ति अनोष्मायस्सरसां जातिसंज्ञयोः इति. चत्वारि पदानि सन्ति अत्र. अनस् अश्मन् अयस् सरसाम् जातिसंज्ञयोः. जात्यर्थकत्वे विवक्षिते जातौ विवक्षितायां समासेन जातौ विवक्षितायाम् अथवा संज्ञायां विवक्षितायाम् एतेषां पदानाम् अथवा एतदन्तानां तत्पुरुषाणां तत्पुरुष कम्पौण्ड् विच् इस् एण्डिङ्ग् वित् दीस् वन् आफ् दीस् फोर् वर्ड्स् तस्य टच् समासान्तः भवति. टच् स्यात् जातौ संज्ञायां च इति उच्यते. अनस् शब्दस्य उदाहरणमस्ति उपगतम् अनः उपानसम्. उप अनस् इति सकारान्तत्वे सति तचि अकारान्तत्वम् उपानस इति नपुंसकलिङ्गत्वम् उपानसम्. उपानसम् इस् अ कैण्ड् आफ् काट्. अनस् शब्दस्य शकटः इत्यर्थः. सो उपानसम् इस् अ क्लास् आफ् काट् कैण्ड् आफ्. अमृतः अश्म अश्मन् इति नकारान्तम्. अमृतः अश्म अमृताश्मः नकारान्तः. पुल्लिङ्गः अश्मन् शब्दः. अमृतः अश्म अश्म इति भवति. इट् इस् नाट् जस्ट् अश्म, इट् इस् अमृतः अमृताश्मः इति समस्तं पदं. तत्र अमृताश्म इति अकारान्तत्वं जातम्. अमृताश्मन् इत्यस्मात् तच् प्रत्ययः कृते नस्तद्धिते इत्यनेन टीलोपे अमृताश्म इति प्रातिपदिकम् अमृताश्मः इति प्रथमैकवचने भवति. सो अमृताश्म इज अ काइंड ऑफ स्टोन. अश्मन इत्यस्य अश्मा इत्यस्य शिला इत्यर्थः. अमृतशिला मार्बल इज अ काइंड ऑफ स्टोन. जातौ अत्र सर्वत्र जातिः उच्यते. सो अमृताश्म इज अ काइंड ऑफ स्टोन. कालम अयः कालायसम. अयस् शब्दस्य अयन इत्यर्थः. कालायसम ब्लैक अयन इति वस्तुतः अर्थः. इट इज अ काइंड ऑफ क्लास ऑफ अयन. इट इज कॉल्ड कालायस. मंडूकानां सरः मंडूकसरसम. सो सरस इति सकारान्तं पुनः मंडूकानां सरः इति षष्ठी समासः. मंडूकसरसम इज अ काइंड ऑफ लेक. It is not a lake, I mean, literally a lake of frogs. It is a kind of lake in which frogs prefer to live. So, atra sarvatra jati hi uchyate. Iti jati hi. So, in all these four cases, the samasta pada intends a class or a jati. Mahanasam pindashmaha lohitayasam jalasarasam iti samya. It is a name. Say jalasarasam is the name of one particular lake. Similarly, lohitayasam is the name for some particular piece of iron, etc. So, samyayam vachayayam api akarantasam, arthat tach samasantaha bhavati. As you can see everywhere, sakarantam pratipadikam chetu sa iti akarantatvena shruyate, nakarantas chetu nakaraha ti lupyate, ti samyakaha bhagaha lupyate. अग्रिमं सूत्रमस्ति. ग्रामकोटाभ्यां च तक्ष्णः. तक्षन् इति प्रातिपदिकं. ग्रामकोटाभ्यां परः यः तक्षन् शब्दः. तक्षन् शब्दः समासे उत्तरपदं. पूर्वपदं भवति ग्राम इति शब्दः अथवा कौटशब्दः. ग्रामकोटाभ्यां परः यः तक्षन् शब्दः तदन्तात् तत्पुरुषात् टच् स्यात्. तत् समासान्तः. तक्षन् इत्यस्य दारुकर्मकर्ता इत्यर्थः. इट् इस् कार्पेण्टर्. कार्पेण्टर् इस् काल्ड् तक्षन्. सो ग्रामस्य तक्षा. ग्रामतक्षः. ग्रामस्य तक्षा. ग्राम तक्षन् सु इति स्थिते सुप्रत्ययस्य लोपे ग्रामतक्षन् इति भवति. टच् टचि कृते अन् इत्यस्य टेः लोपः. ग्रामतक्ष इति प्रातिपदिकं. साधारणः इत्यर्थः. सो इट् इन् इट् मीन्स् literally means a carpenter from the village, but it means his quality is, he is not a very refined carpenter. Something sadharanah sadharanataya sadharana rupena karyam karoti bahu uttamam karyam nasti ityarthe gramatakshah ityasya prayogah asti. That is conveyed by the samasa. Kutyam bhavah kautah. So kutyam bhavah kautah. Kauta shabdasya nishpatim darshayati. So somebody who lives in a कॉटेज इत्यर्थः. स्वतंत्रः इत्यर्थः. अत्र तु कौटः इत्यर्थे स्वतंत्रः. हि इज नॉट अंडर एनीबॉडीज आश्रय. दैट इज हि इज हि वर्क्स इंडिपेंडेंटली इत्यर्थे अत्र कौट शब्दस्य प्रयोगः. सचासौ तक्षा च. अर्थात कौटः तक्षा कौट तक्षः एन इंडिपेंडेंट कारपेंटर इत्यर्थः. तच् प्रत्ययः क्रियते ततः टेः लोपः. उभयत्र तक्षन् इति अन् इति टि भागस्य लोपे तक्ष अ तक्ष इति अकारान्तं प्रातिपदिकम्. नेक्स्ट वी हैव अतेः शुनः. शुन् इति शब्दस्य समासान्तः उच्यते. अति इति अव्ययात् परः यः श्वन् शब्दः. शुनः इति षष्ठी एकवचने वस्तुतः प्रातिपदिकं श्वन् इति भवति. सो अति इति अव्ययात् परः यः श्वन् शब्दः तदन्तात् तत्पुरुषः टच् स्यात्. टच् समासान्तः भवति. शुनम् अतिक्रान्तः. हि हु एक्सेल्स् अ डाग् पर्हाप्स् इन् रन्निङ्ग्. सो इफ् देर् इस् अ डाग् एण्ड् अतिश्वो वराहः इत्यस्य अ पिग् रन्निङ्ग्. सो इफ् द पिग् औट्रन्स् द डाग् आर् इट् इस् faster, it is called Atishvaha. He has managed to escape the dog. Ityarthaha. Atishvaha. Ati shvan. Vati tach. Shvan ityatra an ityasya lopaha. Shv ashva. Atishvaha varahaha. Evam shunam atikranta. Atishvi seva. Service it is worse than a dog. It is a popular usage in Sanskrit. They compare the service that is seva to a dog's plate. So we call it as Atishvi Seva. Second year, I thought till the end of Tatpurusha is for the first year. Tatpurusha Samasa Samapti Paryantam Prathama Varshasya Iti Uktam Asit. No, there is a separate Samasanta Prakaranam. Okay, I mean, in each of the Samasas itself, they do. Kaumudi has Samasanta as in Tatpurusha. Samasanta is a different Prakarana. Samasanta Prakaranam iti bhinnam asti. That covers Samasantas covering, I mean, applying to all Samasas. So, I don't know, I mean, I actually don't know if, but the, in the Kaumudi, the Tatpurusha Samasa Prakaranam itself continues. There is a bit more. So, if you are sure, okay. Upada Samasa itself is in the second layer. I did not know that. Okay, I started this, so I'll continue with this, I guess, and completed. I mean, maybe then after today's class we can stop. After this, there is a bit more in Tatpurusha Samasa. Okay, so the silver stops with Pradi Samasa, is it? In the first year. Pradi Samasa Paryantam Pratham Varshasya. I am planning to teach if you are all interested in continuing. But I mean, I'll not start it immediately. I was trying to start the second year course later, probably from August or something. When are your exams? Kada bhavanti parikshaah? Oh, May 21st. Oh, okay. June is the first day. So that is it. For second year, I'll start again from probably August. I'm not sure. We'll announce it in the partition and we'll start it. So now, are you people writing first year exams or second year? I think there are three here. Oh, okay. Okay, anyway, I'll continue with this and I'll stop with then today's class. We can stop if we have covered the first year portions. And then we'll see. Okay. Okay, Hishunaha. So, okay, so US group taking first year. Fine, no problem. It's like this. So, अति इति अव्ययात् परस्य श्वन् इति शब्दस्य तच्च समासान्तः. सो हव अतिश्वः वराहः अतिश्वी सेवा. अग्रिमं सूत्रमस्ति उपमानात् अप्राणिषु इति. शुनः इति अनुवर्तते श्वन् शब्दस्य उपमानात्, यत्र उपमानवाचकं भवति, उपमानवाचकः भवति श्वन् शब्दः, तत्र तत्समासान्तः भवति. तत् उपमानः अप्राणिविषयक उपमानवाची भवेत्. अप्राणिविषयक उपमानवाचिनः शुनः तच् स्यात्. आकर्षः श्वा इव आकर्षश्वः. श्वा इव इत्यनेन उपमानत्वं गम्यते. सो लैक् ए डाग् आकर्षः. आकर्षः नाम आकर्ष्यते कुसूलादिगतधान्यम् अनेन इति आकर्षः. आकर्षः इस् अ कैण्ड् आफ् काल् इट् इट् इस् अ हेण्ड् शेप्ड् टूल् विच् इस् यूस्ड् टु से वट् इस् अ रेक् इट् इस् यूस्ड् टु क्लियर् द लीव्स् एण्ड् आल् आर् इट् इस् यूस्ड् टु सेपरेट् ग्रेन् फ्रम् हस्. Okay, akarsha it literally means to attract, but in this case it refers to a tool which is made of wood or metal which is used to separate grain from husk. Saha akarshaha panchangulaha daru visheshaha. It has five fingers. I mean, it is shaped like a hand with five fingers. So daru visheshaha, it is a kind of wood. Now akarshaha shva iva. So the shape of that, it is being compared to a dog, because the shape looks like a dog. इत्यर्थे उपमानवाचकत्वम् अस्ति श्वन् शब्दस्य. अतः आकर्षः श्वा इव आकर्षश्वः इत्यत्र टच् समासान्तः कृतः. अप्राणिषु किम्? अप्राणिविषयक उपमानवाची एव भवेत् श्वन् शब्दः इति उच्यते. किमर्थम् इत्युक्ते वानरः श्वा इव इत्यस्ति. मङ्की इट् इस् लैक् अ डाग्. कस्मिन् कः साधारणधर्मः उपमानते कः साधारणधर्मः विवक्षितः इति द्रष्टव्यम्. सा च विवक्षा सन्दर्भतः एव ज्ञायते. इट् कुड् ईदर् बी द शेप् दट् इस् द फेस् इट् लुक्स् लैक् ए डाग् आर् इट् कुड् बी दट् इट् इस् फेस्फुल् लैक् ए डाग् दट् इस् इट् इस् फालोयिङ्ग् अरौण्ड् लैक् ए डाग् इत्यर्थे किमपि भवेत्. उपमानत्वं तु अस्ति अत्र वानरः श्वा एव, किन्तु प्राणिविषयकम् उपमानम्. द थिङ्ग् बीङ्ग् कम्पेर्ड् इस् अ प्राणि एन् एनिमल्. अतः अत्र समासान्तः न भवति. वानरः श्वा एव वानरश्वा. श्वन् शब्दः नकारान्तः, श्वा श्वानौ श्वानः इति भवति. वानरश्वा इति नकारान्तत्वमेव भवति. मध्ये उत्तरमृगपूर्वाच्च तत्क्षणः चाद् उपमानात्. उत्तरमृगपूर्वात् च इत्यस्ति, च इति उपमानात् इत्यपि अनुवर्तते पूर्वसूत्रात्. उत्तरामृगपूर्व एभ्यः उपमानाच्च परः यः सत्थि शब्दः. द वर्ड् सत्थि, सत्थि इट् मीन्स् अ जॉइंट, द थै बोन् इस् कॉल्ड् सत्थि. इट् आल्सो मीन्स् द व्हील, द होल्स् आफ् अ व्हील आर् द एक्सल् इस् कॉल्ड् सत्थि. द एक्सल् आफ् द व्हील इस् आल्सो कॉल्ड् सत्थि. सो उत्तरामृगपूर्व एभ्यः उपमानाच्च परः यः सत्थि शब्दः. सत्थि शब्दः उत्तरपदं भवति. पूर्वपदत्वेन उत्तर इति शब्दः, मृगशब्दः पूर्वशब्दः अथवा उपमानवाचकं पदं भवेत्. तदा तत्पुरुषसमासे तच् इति समासान्तः भवति. उत्तरं सत्थि, उत्तरसत्थम्, द लेटर् थैबोन् इत्यर्थे उत्तरं सत्थि, उत्तरसत्थम्. सत्थि शब्दः इकारान्तः, उत्तरसत्थि तचः अकारः, यस्येति च इत्यनेन इकारलोपे सत्थ इति भवति. सत्थिशब्दस्य नपुंसकलिङ्गत्वात् अत्रापि नपुंसकत्वम् उत्तरसत्थम्. एवं मृगस्य सत्थि, द थैबोन् आफ् एन् आफ् अ डीर् आर् आफ् एन् एनिमल् इत्यर्थे मृगसत्थम्. पूर्वं सत्थि, पूर्वसत्थम्, द फर्स्ट् पोर्शन् आफ् अ सत्थि अथवा द फर्स्ट् थैबोन् इत्यर्थे पूर्वसत्थम्. फलकम् इव सत्थि, सत्थि विच् इस् शेप् लैक् अ प्लाङ्क्, विच् इस् फ्लाट् एण्ड् लुक्स् लैक् ए बोर्ड् आर् अ प्लाङ्क् इत्यर्थे फलकमिव सत्थि, फलकसत्थम्. सो उत्तरमृगपूर्वात् उपमानात्, अत्र उपमानवाचकत्वमस्ति फलकस्य. तस्मात् परस्य सत्थिशब्दस्य, यदा सत्थिशब्दः अस्ति तदा तत्पुरुषस्य तच् इति समासान्तः. नावो द्विगोः नौ शब्दस्य नौ शब्दान्तात् द्विगोः तत् स्यात् न तु तद्धितलुकि घोरतद्धितलुकि इति सूत्रम् अस्ति तस्मात् न तद्धितलुकि इति अनुवर्तते सो नौ शब्दान्तात् द्विगोः टच् स्यात् सो फोर् द्विगुसमास दिस् इस् नाट् ओन्ली फोर् तत्पुरुष बट् स्पेसिफिकली फोर् द्विगुसमास द्विगुसमासे अन्ते नौ शब्दः अस्ति चेत् टच् इति समासान्तः भवति द्वाभ्यां नौकाभ्याम् आगतः समथिङ्ग् हू हेज् ट्रावेल्ड् थ्रू टु शिप् इत्युक्ते द्विनामरूप्यः इति रूपमस्ति तद्धितार्थे द्विगुसमासः द्वि इत्यस्य नौ इत्यस्य च द्विगुसमासः द्वि औ नौ औ इत्यस्य इति भवति द्वि नौ इति द्विगुसमासः समासान्ते टच् भवति द्वि नौ अ इति नौ अ इति एचोयवायावः इत्यनेन आवादेशे नाव इति भवति द्विनाव तदनन्तरं तद्धितार्थे समासः इत्यतः तद्धितप्रत्ययः भवति हेतुमनुष्येभ्यो अन्यतरस्यां रूप्यः सो रूप्यप्रत्यये कृते द्विनाव रूप्यः इति रूपं भवति सो रूप्य इस् अ प्रत्यय हियर् इट् इस् अ तद्धिता सफिक्स् अण्ड् द्विनाव इस् अ द्विगुसमास द्विनाव इत्यत्र तत् समासान्तः दृश्यते अत्र तु तद्धितस्य लुक् नास्ति सो जनरली वि सी दट् तद्धितप्रत्यय इस् डिलीटेड् अत्र तु द्विगो लुग् अनपत्ये इत्यत्र अचि इति अकर्षणात् द सूत्र विच् गिव्स् लोपा फोर् दिस् इस् द्विगोः लुक् अनपत्ये द अनपत्यार्थक प्रत्ययस् विच् आर् आन् द्विगुसमास विल् बि डिलीटेड् तत्र अचि इति अपकृष्यते अग्रिमसूत्रात् अचि इति आनीयते अतः अजन्ताः प्रत्ययाः लुप्यन्ते इट् सेस् दट् अजन्त प्रत्ययस् विल् बि डिलीटेड् सिन्स् रूप्य इस् अ हलन्त प्रत्यय हलादि प्रत्यय नाट् क्षम्यतां नाट् हलन्त इट् इस् हलादि हलादि प्रत्यय इट् विल् नाट् बि डिलीटेड् द्विगोर्णगणपत्ये इत्यत्र अचि इति अपकर्षणात् हलादेः न लुक् अत एव अतद्धितलुकि यत्र तद्धितप्रत्ययस्य लुक् न भवति तादृशे समासे समासान्तः भवति इत्यर्थः पञ्चनामप्रियः पुनः उत्तरपदे परे द्विगुः पञ्चनावः प्रियाः यस्य सः इति प्रिय बहुव्रीहिसमासः सो बहुव्रीहिसमासे उत्तरपदे परे पञ्च नौ इत्येतयोः द्विगुसमासः क्रियते पञ्च नौ अ आवादेशे पञ्चनाव प्रियः समाहारे अपि द्विनावं द्वयोः नावोः समाहारः द्विनावम् तिसृणां नावां समाहारः त्रिनावम् इति भवति सो समाहारे भवति उत्तरपदे परे अपि भवति तद्धितार्थे यदा द्विगुसमासः तदा यत्र तद्धितप्रत्ययस्य लोपः नास्ति तत्र समासान्तः भवति यदि तद्धितप्रत्ययस्य लोपः कृतः अतद्धितलुकि इति किम् पञ्चभिः नौभिः क्रीतः इत्यर्थे पञ्च नौ इति तद्धितार्थे समासः तत्र ठक् प्रत्ययः भवति तद्धितः तस्य अध्यर्थपूर्वद्विगोः लुक् इत्यनेन लुक् भवति सो तद्धितप्रत्ययः हस् बीन् एडेड् एण्ड् डिलीटेड् तदा तु समासान्तः न भवति पञ्च नौ इति औकारान्तमेव शिष्यते सो अतद्धितलुकि एव तच् समासान्तः अर्धाच्च अर्धात् नावः टच् स्यात् अर्ध इत्यस्मात् पदात् नौ शब्दः अस्ति चेत् टच् भवति नावः अर्धम् हाफ् आफ् अ शिप् इत्यर्थे अर्धनावम् अर्धं नपुंसकम् इत्यनेन समासः अर्ध नौ इति भवति तचि कृते अर्धनाव नपुंसकत्वे अर्धनावम् क्लीबत्वं लोकात् कथम् अत्र नपुंसकलिङ्गत्वम् सो हि परवल्लिङ्गम् इत्युक्ते पर्वत परशब्दः नौ शब्दः स्त्रीलिङ्गः सो दिस् शुड् एक्चुअली हेव् बीन् इन् स्त्रीलिङ्ग किन्तु लोकात् क्लीबत्वम् सो टु गिव् नपुंसकलिङ्ग हियर् देर् इस् नो सूत्र देर् आर् केसस् वेर् लिङ्ग इस् बीङ्ग् टोल्ड् बै पाणिनि हिम्सेल्फ् रात्रनाः पुंसि इत्यादि रीत्या लिङ्गम् उच्यते किन्तु अत्र नपुंसकलिङ्गविधायकं किमपि सूत्रं नास्ति लोके प्रयोगः नपुंसकलिङ्गे दृश्यते इत्यतः एव नपुंसकत्वम् क्लीबत्वम् लोकात् खार्याः प्राचाम् सो खारी शब्दः खारी इस् अ वर्ड् विच् गिव्स् it's a parimanavachaka. You have drona, khari, etc. There are different measures of, say, grain. Like we have, say, kilogram or, say, liter today. It is a measure. So, dvigohu ardhatra khariyaha tach vasyat. Vikalpena tach pratyaha bhavati khari shabdasya. Dvigu samase ardha shabdatra pare. Dvayohu khariyohu samaharaha. Dvi khari. Iti dirghaha. Khari shabdaha ee karantaha. Samasante dvikhari a tachikrate. Yasya thicha ittenena ee karasya lope dvikhara. भवति समाहारे नपुंसकत्वात् विकारम् यदा तु समासान्तः न भवति विकारी इति दीर्घः अस्ति समाहारे द्विगोः नपुंसकत्वम् अस्ति सनपुंसकम् इत्यनेन नपुंसकलिङ्गत्वं वक्ष्यते नपुंसके ह्रस्व नपुंसके प्रातिपदिकस्य इत्यनेन ह्रस्वे कृते विकारि इति समासान्तप्रत्ययस्य अभावे रूपम् समासान्ते कृते विकारम् तदभावे विकारि अर्धम खार्याः अर्ध शब्दे पूर्वपदे अपि भवति अर्धम खार्याः हाफ खारी तते समासान्ते कृते अर्धखारम् तदभावे अर्धखारी द्वित्रिभ्याम् अञ्जलेः अञ्जलि शब्दस्य द्वित्रिभ्याम् द्विशब्दात् त्रिशब्दात् च परे अञ्जलि शब्दः अस्ति अनन्तात् तत्पुरुषात् तच् भवति द्विगु समासे द्वयोः अञ्जल्योः समाहारः सो कमिंग टु अञ्जलि अञ्जलि इस् द पाम इस् कॉल्ड अञ्जलि सो द्व्यञ्जनम् अञ्जलि से द्व्यञ्जनम् इस् टु गिव समथिंग विच इस् टू फिस्टफुल्स ऑफ समथिंग द्वि अञ्जलि इत्यस्ति अचिकृते तचिकृते इकारस्य लोपे द्व्यञ्जलम् इति समासान्ते तदभावे द्व्यञ्जलि इत्येव भवति अतद्धितलुकि इत्येव द्विगुसमासे तद्धितलोपः यत्र नास्ति तत्र अत एव द्वाभ्याम् अञ्जलिभ्याम् क्रीतः इत्यर्थे द्व्यञ्जलिः द्व्यञ्जलिः इति यत्र अस्ति तत्र द्व्यञ्जल इति न भवति समासान्तः न कृतः अत्रापि तदेव किम् ठक् प्रत्ययः भवति प्रत्ययस्य लोपः क्रियते तद्धितस्य लुक् अस्ति इत्यतः समासान्तः न भवति ब्रह्मणो जानपदाख्यायाम् ब्रह्मान्तात् तत्पुरुषात् टच् स्यात् तत्पुरुष एण्डिङ्ग् वित् द वर्ड् ब्रह्मन् ब्रह्मान्तात् तत्पुरुषात् टच् स्यात् समासेन जानपदत्वम् आख्यायते चेत् एण्ड् द समास रेफर्स् टु सम् जानपद जानपद सम प्लेस सम सिटी और कंट्री उदाहरणमस्ति सुराष्ट्रे ब्रह्मा सुराष्ट्र ब्रह्मा सो सुराष्ट्र ब्रह्मा रेफर्स टू ब्राह्मण ब्रह्मा नाम अत्र विप्रः इत्यर्थः नॉट द चतुर्मुख ब्रह्मा ब्रह्मा नाम विप्रः सुराष्ट्र ब्रह्मः रेफर्स् टु ब्राह्मिन् हु इस् हेलिङ्ग् फ्रम् दट् पर्टिक्युलर् प्लेस् अतः सुराष्ट्र ब्रह्मः ब्रह्मन् इति नकारान्तम् टचि कृते नस्तद्धिते इति लोपे ब्रह्मः इति भवति जानपद इति किम् जानपदाख्यायामेव भवति देवब्रह्मा नारदः देवानां देवर्षिः इत्यर्थे देवब्रह्मा नारदः इत्यस्ति अत्र समासेन किमपि स्थलम् अथवा जानपदस्य आख्या न भवति इत्यतः अतः समासान्तः नास्ति ब्रह्मन् इति नकारान्तम् प्रथमैकवचने ब्रह्मा इति रूपम् देवब्रह्मा नारदः अग्रिमं सूत्रमस्ति कु महद्भ्याम् अन्यतरस्याम् कु अण् महद् आभ्याम् ब्रह्मणः वा तच् स्यात् तत्पुरुषे पूर्वसूत्रेण नित्यम् तच् भवति अत्र तु विकल्पेन कु शब्दात् महत् शब्दाच्च परत्वेन ब्रह्मन् इति पदम् अस्ति चेत् तत्पुरुषसमासान्ते टच् प्रत्ययः भवति कुत्सितः ब्रह्मा कुत्सितः विप्रः इत्यर्थे कुब्रह्मः समासान्ते कृते अकारान्तत्वे कुब्रह्मः तदभावे नकारान्तत्वे कुब्रह्म कुसमासः कुगतिप्रादयः इत्यनेन समासः महान ब्रह्मा अस्ति इति विग्रहः आन्महत समानाधिकरण जातीययोः इति सूत्रम्। सो ई समासांताः अधीताः इदानीम् आत्मं विधीयते। आन्महतः त्रीणि पदानि सन्ति, महतः आत् समानाधिकरण जातीययोः, समानाधिकरण समासे तथा जातीयर् इति कथित प्रत्ययः, तस्मिन् प्रत्यये च परे महतः महत् शब्दस्य आत् आकारः अन्तादेशः भवति। महत् इति तकारान्तम्, तत्र तकारस्य स्थाने आकारः आदेशः भवति। महतः आकारः अन्तादेशः स्यात् समानाधिकरणे उत्तरपदे, देन् फालोड् बै एन् उत्तरपद विच् इस् समानाधिकरण, तथा जातीयर् प्रत्यये च परे। इदानीं महान् ब्रह्मा इत्यस्ति, महत् सु ब्रह्मन् सु सन्महत् परमोत्तमोत्कृष्टाः पूज्यमानैः इति समानाधिकरणसमासः। महत् सु ब्रह्मन्सु समानाधिकरणत्वात् कुमहद्भ्यामन्तरस्याम् इत्यनेन टच् समासान्तः, महत् शब्दात् परस्य ब्रह्मन् शब्दस्य आदौ समासान्तः क्रियते। सो यु हाव् महत्सु ब्रह्मन्सु एण्ड् अ, सुबोधातु प्रातिपदिकयोः इत्यनेन लोपे महत् ब्रह्मन् अ। इदानीम् आन् महत् ओके, सो बिफोर् दट् ब्रह्मन् अ इति स्थिते अन् इति तेः लोपः न स्कर्धते, सो ब्रह्म अ। इदानीम् आन्महत समानाधिकरणजातीययोः इत्यनेन तकारस्य स्थाने आकारः, मह आ ब्रह्म, अतस्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे महाब्रह्म इति भवति, अत एव समासे महा इति श्रूयते। महाब्रह्मः समासान्ते कृते, समासान्तः विकल्पेन, आत्वं तु नित्यम्, आत्वा इस् कम्पल्सरी, वेदस् समासान्त टच् इस् विकल्प आप्शन्, टच् प्रत्यये कृते महाब्रह्मः इति अकारान्तम्, तस्य अभावे महाब्रह्मा इति नकारान्तम्। एवं महादेवः, महान् देवः, महादेवः एव्रिवेर् सर्वत्र यत्र महा इति शब्दः श्रूयते, वस्तुतः महत् शब्दः, तस्य आत्वं कृतम् इत्यर्थः। महाजातीयः, जातीयर् इति प्रत्ययः, महाजातीयः इति रूपं सद्धितेषु भवति। समानाधिकरणे किम्, किमर्थं समानाधिकरणसमासे एव, महतः सेवा अथवा महतां सेवा, सर्विस् आफ् अ ग्रेट् पर्सन् इत्यर्थे षष्ठीसमासे आत्वं न भवति, महत् सेवा, महासेवा इति रूपं भवितुम् अर्हति, महती सेवा इत्यस्ति चेत् महासेवा। सो इफ् द सर्विस् इफ् ग्रेट्नेस् इस् बीङ्ग् एट्रिब्यूटेड् टु द सर्विस् इट्सेल्फ, तदा तु समानाधिकरणसमासः, महती सेवा महासेवा भवति। किन्तु महतां सेवा इन् द सर्विस् आफ् द ग्रेट् इत्यर्थे आत्मं न भवति, महत् सेवा इति रूपम्। अत्र अपरः प्रश्नः, आन्महतः इत्यत्र कः समासः स्वीक्रियते, सन्महत् परमोत्तमोत्कृष्टाः पूज्यमानैः इति सूत्रमस्ति, तत्र महत् इति शब्दमेव निर्दिश्य समासः विहितः, वेर् इस् दिस् समासः वेर् दिस् वर्ड् महत् इट्सेल्फ् हेस् बीन् टोल्ड्, अतः तत्र एका परिभाषा अस्ति, लाक्षणिकं विहाय सन्महत् इति समासः ग्रहीष्यते इति चेत्, इफ् देर् इस् अ परिभाषा एक्चुअलि, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषा अस्ति। सो दिस् परिभाषा टेल्स् लक्षण एण्ड् प्रतिपदोक्त, प्रतिपदोक्त इस् संथिङ्ग् विच् हेस् बीन् टोल्ड् टेलिङ्ग् ए पर्टिक्युलर् शब्द, एकं शब्दम् उच्चार्य यद्विधीयते तत् प्रतिपदोक्तम्, अन्यत् लाक्षणिकम्। से फार् एक्साम्पल् इन् दिस् केस् सन्महत् परमोत्तमोत्कृष्टाः पूज्यमानैः इति सूत्रेण महत् इति शब्दः एव निर्दिश्यते, द वर्ड् महत् हेस् बीन् स्पेसिफिकलि मेन्शन्, तद् प्रतिपदोक्तम्, दट् समास विल् बि प्रतिपदोक्त। नौ द वर्ड् महत् केन् आल्सो बि इन्वाल्ड् इन् समदर् समास लैक् ए बहुव्रीहि, से महान्तौ बाहू यस्य सः इति बहुव्रीहिः, बहुव्रीहौ महत् शब्दस्यैव समासः इति निर्देशः नास्ति, इट् इस् अ जनरल् सूत्र अनेकमन्यपदार्थे इत्यनेन समासः, तत्र प्रतिपदोक्तत्वं नास्ति महत् शब्दस्य, देर् इस् कर्मधारय समास वेर् द महत् वर्ड् महत् इट्सेल्फ् हेस् बीन् स्पेसिफैड्, वेर् दर् इस् बहुव्रीहि समास वेर् द वर्ड् महत् हेस् नाट् बीन् स्पेसिफैड्। दिस् परिभाषा टेल्स् लक्षण प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, यत्र प्रतिपदोक्तत्वम् अस्ति अर्थात् महत् शब्दम् उच्चार्य यत्र समासः कृतः तत्रैव समासान्तः भवति अथवा आत्वं भवति इति यदि उच्यते लाक्षणिकं विहाय, अर्थात् यत्र यत्र महत् शब्दस्य समासः इति अर्थं विहाय सन्महत् इति समासः ग्रहीष्यते, केवलं यत्र सन्महत्परम इति सूत्रेण समासः भवति तत्रैव आत्मम् इति यदि गृहीष्यते महाबाहुः न स्यात्। महाबाहुः इति रूपं न भवति। तत्र किम् उच्यते? महान्तौ बाहू यस्य सः इति बहुव्रीहिः। अत्र तु आत्मं न स्यात्, आत्मम् इष्यते। वि विल् नाट् हेव् आत्मा हियर् बट् आत्मा इस् डिसैड्। अत एव तस्मात् रक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषा नेह प्रवर्तते अस्मिन् सन्दर्भे, अर्थात् अस्मिन् सूत्रे आन्महतः इति सूत्रे इयं परिभाषा न प्रवर्तते। समानाधिकरणग्रहणसामर्थ्यात् यत्र यत्र सामानाधिकरण्यम् अस्ति समासे तत्र भवति। कर्मधारये अपि सामानाधिकरण्यं भवति, बहुव्रीहावपि सामानाधिकरण्यं भवति, अतः उभयत्रापि आत्मं भवति। सो दिस् आत्मा विल् अप्लै बोत् इन् कर्मधारय समास एण्ड् इन् बहुव्रीहि। आत् इति योगविभागाद् आत्मं प्राग् एकादशभ्यः इति निर्देशाद्वा एकादश, एकादश इति रूपमस्ति, एकं च दश च अथवा एकाधिकदश इति, वन् प्लस् टेन् इत्यर्थे एकदश इत्यस्ति। एका इति दीर्घः कथम् इति प्रश्नः, हौ डु वि हाव् दीर्घ देर्? सो देर् आर् टु सल्यूशन्स्। द फस्ट् थिङ्ग्स् इस् योगविभागः, आन्महतः इत्यत्र योगविभागः क्रियते, दट् इस् स्प्लिट् इन् टु टु सूत्रा। आत् इत्येव एकं सूत्रम्, आत् इत्यत्र योगविभागः क्रियते। सो द फस्ट् सूत्र इस् ओन्ली आत्, अर्थात् आत्मं भवति, सत्यात्मं भवति इति निर्देशः नास्ति, यत्र इष्यते। सो डिपेण्डिङ्ग् आन् प्रयोग, वेर् एवर् आत्मा इस् रिक्वैर्ड् देर् इस् आत्मा। अतः एक इत्यस्य समासे उत्तरपदे परे आत्मं भवति इत्युक्ते एकादश इति भवति, इति एकं समाधानम्। अपरन्तु प्रागेकादशभ्यः इति निर्देशात्, पाणिनि हिम्सेल्फ् यूसेस् द वर्ड् एकादश, प्रागेकादशभ्यः इति सूत्रे पञ्चमाध्याये तृतीयपादे अस्ति। सो तस्मिन् सूत्रे पाणिनिना एव एकादश इति प्रयुज्यते, तस्य प्रयोगबलाद्वा एकादश इति साधयितुं शक्नुमः। सो इट् केन् द वर्ड् यूसेज् आफ् एकादश केन् बि सब्स्टान्शियेटेड् बै टू वेस्, ईदर् वि गो फार् योग विभाग आर् बिकास् आफ् पाणिनियन् प्रयोग वि सपोर्ट् इट्। महती शब्दस्य पुंवत्कर्मधारय जातीयदेशीयेषु इति पुंवद्भावे कृते आत्मं महाजातीया। सो महती इत्यस्ति, सो महती इत्यस्य पुंवत् कर्मधारय समासे पुंवद्भावः भवति, अतः पुंवद्भावे कृते महत् इति भवति, ततः पुनः आन्महतः इत्यनेन आत्मं भवति महाजातीया, महादेवी इत्यपि भवति, महती देवी इत्यस्य पुंवद्भावे महादेवी भवति। अत्र एकं वार्तिकमस्ति, महतः आत्वे घास कर विशिष्टेषु उपसंख्यानं पुंवद्भावः च। अस्मिन् आत्मप्रकरणे एतेषामपि परिगणनं कर्तव्यम्। घास कर विशिष्ट इति त्रयाणां पदानां परिगणनं कर्तव्यम्। पुंवद्भावः अपि भवति, यदि महती इति स्त्रीलिङ्गे अस्ति तर्हि पुंवद्भावः अपि भवति। असामानाधिकरण्यार्थमिदम्, सामानाधिकरण्यं नास्ति चेदपि पुंवद्भावः अपि भवति, आत्ममपि भवति। महतः महत्याः वा घासः, घासः ग्रास् इत्यर्थः, फोडर्। महतः इस् इस् मेण्ट् फार् अ ग्रेट् हार्स् अथवा ए ग्रेट् कौ इत्यर्थे। महतः घासः महाघासः, महत्याः घासः इत्यस्ति चेत् तत्र पुंवद्भावः अपि भवति, आत्ममपि भवति, महाघासः सूत्रेण न भवति। सो नीदर् पुंवद्भाव नार् आत्मा केन् बि बै द सूत्र। सूत्रेण किमुच्यते? कर्मधारये एव पुंवद्भावः, कर्मधारय जातीय देशीयेषु एव पुंवद्भावः, आत्ममपि समानाधिकरणे एव। सो नीदर् समानाधिकरणे इस् नाट् डन्, देर्फोर् अप्राप्ते अनेन वार्तिकेन विधीयते। महाकरः, महतः करः, महत्याः करः, महाकरः हेण्ड्, करः नाम हस्तः इत्यर्थः। महाविशिष्टः, who excels greatly, इत्यर्थे the excellence of a great person, इत्यर्थे महाविशिष्टः, महतः महत्याः वा विशिष्टः। अपरं वार्तिकमस्ति, अष्टनः कपाले हविषि। अष्टन् शब्दस्य आत्मं भवति कपाले उत्तरपदे, एण्ड् कपाल इस् द उत्तरपद, The word ashtan will have artha when it intends when the vivaksha is of a havis. Ashtakapalaha. Ashtasu kapalesha samskataha purodashaha. Purodashaha havihi. So the havi which has been cooked in 8 pots. Ashtakapalaha. Tathirathe digusamasaha. Ashtan kapala itisthite atve ashtakapalaha. It is a very famous prayoga in the Vedas. Samskutam bhakshaha ityanena ann tathitaha bhavati vigolganapatye ityanena lopaha. So tathirapatya has been deleted. Ashtakapalaha iti samasaha akarantaha shruyata. Gavicha yukte ashtan shabdasyaiva goshabde pare atvam bhavati yukte, that is yukte ityarthe gamye. We'll see what is the meaning. Ashtanaha atvam syat iti vartikam. Ashtagamam shakatam. Yukte nama that which is yoked to. So a cart which has been yoked to 8 cows. That is a cart which is being drawn by 8 cows. Ashtagamam bhavati. Ashtan go ityasti. Ashtabhihi govihi yuktaha ityarthe tadhidarthe dvigu samasaha. Ashta go. Goradadhita. Ashtau gavo vyasya. Shemedam. Bahubrihi samasaha. Ashtau gavo vyasya iti bahubrihi. Ach pratyanava purva dhamalomnaha ityatra ach iti yoga vibhagat bahubriha api ach ashtagava ityatra ashtan ityasya atvam tu kritam, that is fine. Go ityasti tatra ach samasantaha kritaha vastutaha samasantaha tatpuruṣe eva bhavati goratadhita luki iti samasantaha kintu ach iti yoga vibhagaha kriyate bahubrihi samase api ach samasantaha kritaha. So ashtau gavo vyasya ashta go samasante ashta go a ashta gava ashtan gava iti bhavati makarasya ashvekshate ashtagavam ashtagavam shakatam ashtanam gavam samaharaha ashtagavam. So a group of 8 cows is called ashtagava and the cart which is tied to a group of 8 cows tad yuktatvat ashtabhihi govihi yuktam ityarthe ashtagavam shakatam. So cart is the word ashtagavam can either be sit as a bahuvrihi samasa or as a dvigu samasa. Tataha dvishtana sankhyayam abahuvrihi ashityohu. So this is for a very popular prayoga. We see in sankhyavasakas we have dvavimshati, ashtavimshati, etc. Wherever you hear the atvam. So, dvyashtanaha, dvi shabdasya, ashtan shabdasya, sankhyayam, sankhyayam, when the uttarapada is also a sankhya. Atvam bhavati, an mahataha ityataha, as iti anuvartate. Atvam bhavati, bahuvrihau nam bhavati, ashiti shabdepi nam bhavati. At syat, dvi ashtanaha, dvi shabdasya, ashtan shabdasya, atvam bhavati. Dvau cha dasha cha. Dvi dasha iti sthite, atre krate, dvi ikarasya akare krate, dva dasha. Thama dvyadhika dasha, there are 2 vigrahas for dva dasha, you can either say dvau cha dasha cha, iti dvandva samasaha, athama dvyadhikaha dasha, iti madhyama padaloki karmadharaya, ubhayam api kartum shakyate, ubhayatha api dvi dasha iti sthite, atvam bhavati dva dasha iti rupam. Evam dva vimshati. Dvaucha vimshatischa itiva vidhika vimshatihi dva vimshatihi. Dvi shabdasya bhut ashtadasha ashtan ityasya api bhavati ashtadasha ashta vimshatihi. That is why you hear the dirgha. Abhuvri yashityohu kim bahuvrihau na bhavati dvauva trayova ityasti bahuvrihi samasa. Dvavva trayova iti bahuvrihi samase dvitraha itiva sti dva iti akaraha na shruyate dvitraha. Evam dvyashitihi ashiti shabde pare api atvam na bhavati dvi ashitihi yanadeshe krite dvyashitihi. So bahuvriha na bhavati ashiti shabde pare api na bhavati anyatha tu bhavati ashtadasha ashtavimshatihi. Prayoga hasti ashta chatvarimshat kathamiti agreva vakshyate. You will see that there is a vikalpa. Prak shatad iti vaktavyam. Atta sutre shatat prak. Only when the numbers are before 100, numbers below 100 will get this artva. Neha dvishatam. Vigunitam shatam iti samasaha. Tadatu dvishatam iti sthite tatra artvam nasti. Prak shatate. Only for numbers below 100 you have artva. Dvishatam dvisahasram. Evam ashtasatam ashtasahasram. Teshu artvam nabhavati. Punah trestrayah. Trishabdasya trayas syat purva vishaye. Same thing. Sankhyayam upapade. Sankhyayam uttarapade. When followed by an uttarapada, the word three will get trayas. Right? Trayodasha. Trayas dasha. Bhavati tatra sandhau krute. Uttvam bhavati utve krute. Trayodasha. Trayovimshatihi. So for three numbers, for dvi and ashtan you have atva, and for three you have trayadesha. Trayas adesha. When followed by a number. Bahuvrihautu tridasha tridashaha. So trivaram dasha ityarthe bahuvrihi samasaha. Tatra tridasha ityeva bhavati trayas adeshaha na bhavati. Sujarthe bahuvrihi. Trihi nama three times ityarthe. Trais ten thirty ityarthe tridasha shabdasya prayogaha bahuvrihi samasaha. Tatra such trihi iti such pratyayantaha tasminarthe bahuvrihi samasaha. Bahuvrihi samase nabhavati trayas adeshaha. Ashitau api nabhavati triyashitihi. So the next. Prakshatad itteva. This also is only for numbers before 100. That is when followed by numbers before 100. So trishatam, trisahasram ityadisho nasti adeshaha. Vibhasha sattvarimshat prabhatau sarvesham. Starting from chatvarimshat, sarvesham, nama dvyashtanoho atvam yadasti tadapi, trehe trayadeshaha yadasti tadapi, vibhasha, vikalpyate. Dvyashtanoho trehe cha praguktam atvam trayasadeshaha cha vasyat vikalpena bhavati chatvarimshat adau pare. So for 10 and 20, that is trayodasha and trayovimshati or dvadasha and dvavimshati, it is compulsory. Starting from that, dvatrimshat is also compulsory. Starting from chatvarimshat, it is an optional form. Therefore, dvichatvarimshat ityapi bhavati, dvachatvarimshat ityapi bhavati. Ubhayam sadhu, both of them are correct. We tend to use dvichatvarimshat, but both forms are correct. Sarvatra atvam bhavitum arhati. Everywhere, I mean, if you want uniformity, everywhere atva is correct. But dvivimshati or dvitrimshat is not correct. For the first three, dasha, vimshati, trimshati, tyatra, nityameva atvam bhavati, tataha vikalpena atvam bhavati. Evam ashta chatvarimshat, ashta chatvarimshat, atvam bhavitumarhati, atva vihinam api rupam asti. Tri chatvarimshat, trayash chatvarimshat, iti sadhu. Evam panchashat, shashti, saptati, navatishu. So in all cases, it can be tripanchashat or trayah panchashat or dvipanchashat, dvapanchashat. Both of them are correct. For panchashat, shashti, saptati, navati. For ashiti, as we already saw, it will not be there. Ashitau na bhavatyeva. It has to be dvishitihi, trishitihi, ashtashitihi. For the others, it is optional. For first three, dasha, vimshati, trimshati, etc. nityam atvam bhavati. Vibhasha chatvarimshat prabhratau sarvesham iti sutram. And the last thing, another ekadishcha ekashya chaduk. Okay, this is a totally unrelated sutra actually. Atum asti itara kivampi uchyate. Panchapadani santi ekadihi cha ekasya cha aduk. Okay. Nai samasa visheha, nalopo nayaha ityaha nayaha iti anuvartate, nabhran napad ityataha prakritya ityapi anuvartate. Ekadihi nai prakritya asyat, ekasyata aduk agamaha. This is a very specific example. This is a nai samasa. Nai samasa is again combining with eka. Ekadihi nai. A nai samasa which is preceded by the word eka. Tada nayaha prakrit lopaha na bhavati. As you already saw, nalopo nayaha ityanena nayaha lopaha bhavati. If you say na ashvaha, अनश्वः अथवा न धर्मः अधर्मः नयः लोपः भवति. अत्र तु नञ् प्रकृत्या स्यात् नकारस्य लोपः न भवति इति एकः अंशः. एकस्य च आदुगागमः, इफ् द वर्ड् इस् एक देन् दट् विल् बि गेट् आतुक् आदुक् एस् द आगम. ओके, आदुक् आत् एस् द आगम इण्टेण्डेड्. सो नयो विंशत्या सह समासे फर्स्ट् वी डू नै वित् विंशतिः न विंशतिः इत्यस्ति. ततः एकशब्देन तृतीया इति योगविभागात् समासः. एकेन न विंशतिः इति समासः. दशमासविधायकसूत्र इस् द योगविभाग तृतीया इति समासः. एकेन न विंशतिः इति भवति. सो दट् विच् इस् नाट् 20 by 1, this is 1 less than 20. इत्यर्थे एक न विंशतिः इति आदौ नै समासः, ततः एकेन इति एकशब्देन नयः समासः. सो न विंशतिः इत्यत्र न इति श्रूयते. सो नयि प्रकृत्या इति एकः अंशः. एकशब्दस्य आदुक् इति आगमः, दट् इस् आत् बीङ्ग् एडेड् टु द एण्ड् आफ् एक. सो इट् बिकम् एकाद् न विंशतिः. अनुनासिकविकल्पः, एरोनुनासिके अनुनासिको वा इति अनुनासिकविकल्पे कृते, अनुनासिके कृते एकान्न विंशतिः इति रूपम्, अनुनासिके अकृते एकाद्न विंशतिः इति रूपम्. एकोनविंशतिः इत्यर्थः, मीनिङ्ग् इस् 19 इत्यर्थे एकान्न विंशतिः इति रूपम् अस्ति. एवम् एकाद्न विंशतिः, दिस् इस् सीन् इन् द वेदास्. ऐ डोण्ट् रिमेम्बर्, ऐ हेव् हर्ड् दिस्, देर् इस् वन् वेरि फेमस् सूक्त वेर् दिस् वर्ड् इस् देर्. किन्तु रूपम् अस्ति तत् साधनार्थम् एकादिश्च एकस्य आदुक्. अपरं वार्तिकमस्ति, शश उत्त्वं दतृ दश धासु उत्तरपदादेः टुत्वं च धासुवेति वाच्यम्. वार्तिकद्वयम् अस्ति. कः अर्थः? दतृशब्दे दशन् शब्दे च उत्तरपदे परे, धा प्रत्यये च परे शश शब्दस्य उत्त्वं भवति. द वर्ड् शश विल् गेट् उत्त्व, श उ अन्त्यस्य शकारस्य उत्त्वे श उ शो इति भवति. कदा? दतृशब्दे दशन् शब्दे च परे, वेन् फालोड् बै इदर् दतृ आर् दशन्, आल्सो वेन् फालोड् बै द प्रत्यया काल्ड् धा. सो षब्दस्य उत्त्वं भवति इति एकः अंशः. उत्तरपदादेः टुत्वं च, एण्ड् द बिगिनिङ्ग् आफ् द उत्तरपद विच् इस् इदर् द, विच् इस् दकार आर् धकार, विल् गेट् टुत्व, दट् इस् टवर्ग अस् द आदेश. धासु वा इति वाच्यम् इत्यस्ति. धा प्रत्यये परे विकल्पेन उत्त्वं भवति. धा प्रत्यये परे शश उत्त्वं वा स्यात्. एण्ड् अबौट् द टुत्व, दर् इस् पक्षभेद. टुत्वं तु उत्त्वपक्षे तदभावपक्षे च पूर्ववाक्यात् नित्यमेव इति कैयतः. अकार्डिङ्ग् टु कैयत, आफ्टर् वि डु वेदर् वि डु उत्त्व आर् नाट्, टुत्व विल् हेपन्. किन्तु हरदत्तमते उत्त्वपक्षे एव टुत्वम्. ओन्लि वेन् दर् इस् उत्त्व दर् इस् टुत्व. सी द एक्साम्पल्स् हियर्. षोडन् इति उदाहरणमस्ति. षड् दन्ताः यस्य, दट् विच् हेज़् सिक्स् टीत् इत्यर्थे बहुव्रीहि समासः. वयसि दन्तस्य दतृ इत्यर्थे इति दत्रादेशः, दन्तशब्दस्य दतृ इति आदेशः. षड् दत् इत्यस्ति. सो दतृ इत्यत्र ऋकारस्य इत्सम्य, यु हाव् षड् दत् उत्त्वं, शश उत्त्वम् इति वार्तिकेन उत्त्वे कृते श उ दत् इति भवति. टुत्वं भवति, द द इस् रिप्लेस्ड् बै टवर्ग विच् इस् दकार. सो इट् बिकम् श उ दत्. गुणे कृते षोडत् इति प्रातिपदिकम्. यथा पठत् प्रातिपदिकस्य पठन् पठन्तौ पठन्तः इति भवति, तथा अत्र षोडत् इति प्रातिपदिकस्य षोडन् षोडन्तौ षोडन्तः. इट् प्रिफर्स् अ पर्टिक्युलर् एज्, एन् एज् वेर् द चैल्ड् हेज़् सिक्स् टीत्, पर्हाप्स् ओन्ली वन् आर् वन् अण्ड् हाफ् इयर्स्. तस्मिन् अर्थे षोडन् इत्यस्य प्रयोगः अस्ति. शिशुः इत्यर्थः वस्तुतः. प्रथमैकवचने षोडन् इति रूपम्. एवं षोडश, दिस् इस् वेरि पाप्युलर्, षड् दश इत्यस्ति. षडधिकादश इति वा षट्चदश इति वा, शश दश इति स्थिते उत्त्वं भवति. श उ दश, षो दश, द दकारस्य टुत्वे कृते दश इति भवति. षोडश इति रूपम्. एवं षड्धा षोढा. धा इति प्रत्ययः संख्यायाः विधार्थे, षोढा नाम षड् विधाः इत्यर्थः. विधार्थे धा इति तद्धितप्रत्ययः. शश धा इति स्थिते उत्तरे कृते श उ शो धा इति भवति टुत्वे कृते शोढा इति उत्तरस्य अभावे धासु वेति वाच्यम् इति उक्तम् धा प्रत्यये परे विकल्पेन भवति इति उक्तम् तदभावे उत्तरस्य अभावे षड् धा इत्येव भवति उत्तरे कृते षोढा इति रूपम् सो अत्र लेट् इस् फिनिश् वित् दिस् दिस् इस् एक्चुअलि नाट् द एण्ड् आफ् सत्पुरुषमास देर् इस् वन् स्माल् पार्ट् लेफ्ट् इन् सत्पुरुषमास अबौट् द लिङ्गनिर्णय How do we decide linga in Tatpurusha? Anyway, it is for the next year, so we'll stop this here and we'll continue later. Any questions? So this will be the last class for now. If you have any questions, you can always mail me. I'll try to answer them, okay, if you have further exams or anything. So, all the best for your exams. Hope you do well. We'll see next year. I'll tell you when I'll be able to start the next year. Dhanyavadaha. Enacharasamam nayamadhigamya maheshwara kritsnam yakaranam proktan tasmai paninaye namaha akhitaram vararajim harshakaram patanjalim पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीः परिभाव्य च अय्याकरणसिद्धान्तकौमुदीयम् विरच्यते